ప్రావరుణా ప్రాతరశ్వినా ప్రాతభగం భూషణం బ్రహ్మణస్పతిం ప్రాతః సోమముత రుద్రం హూవేమ ప్రాదర్జితం భగముగ్రం హూవేమ భయం పుత్రమతిధర్తా ఆద్రశ్చిద్యం మన్యమానస్థురశ్చిద్రాజాచిద్యం భగం భక్షీత్యాహ భగ ప్రణేతర్భగ సత్యరాధో భగేమాంధియముద వాదదన్నః భగ ప్రణో జనయగోభిరస్వైర్భగ ప్రణృవంత శ్యామ ఉదేరానీం భగవంత శ్యామోత ప్రాచిత్వభుత మధ్యే అన్నాం ఉదోదీతామఘవన్ సూర్యస్య భయం దేవానాం సుమతౌ శ్యామ భగ ఏవ భగవాన్ అస్తు దేవాస్తేన భయం భగవంత శ్యామ తన్వా భగదర్వజిజ్యో హవీతి సమో భగపురజేత భవేహ సమధ్వరాజోషసో నమంతదధిక్రావే వసు చ జే పదాయ అర్వాధీనం వాసువిదం భగం నోషధమివాశ్వాజిన ఆవహంతు అశ్వాతీర్గోమతీర్న ఉషాసో వీరవతీ సదముచ్చు భద్రా ఘృతం దుభానా విశ్వ ప్రపీతూయం పాత స్వస్తి విశ్వదాన బ్రహ్మాణో అంగీరసో నక్షంద ప్రక్రం ధనుర్నభన్యస్ వేదు రథేన వుత ప్రదో నవంత యుజ్యాతామద్రీ అధ్వరస్య పేషా సుగస్తే అగ్నే సన విత్తో అధ్వా యుక్ష్వాసుతే హరితో రోహితశ్చ ఏ వాసద్మన్నరుడావీరవాహో హువే దేవానాంజలీమాని సత్తః సమూగో యజ్ఞం మహజం నమోభిః ప్రహోతా మంద్రోరీరిచ ఉపాకే యజస్వసు పర్వణీక దేవానా యజ్ఞియా మరమాదింబ్రవృత్యా యదా వీరస్య రేవతో దురోణేస్యో నశీరతిధిరాజికే తత్ సుప్రీతో అగ్నిసుధీతో తమాస నిషేధా దివాజమియత్యై ఇవన్నో అగ్నే అధ్వరం జూరస్వ మరుచ్చింద్రే యశసం కృధీనః ఆనక్తాభిరిస్సదామురాసోసందామిత్రావరుణాయ దేహ ఏవాగ్నిం సహస్రామ్రజిష్ఠో రాజస్కామో విశ్వప్స్యస్య స్తౌత్ ఇషం రజం ప్రప్రథద్వాజ భస్మే యూయం పాత స్వస్తిభిస్వరానః ప్రభో యజ్ఞేషు దేవయంతో అర్చం యవానమోభిః పృథివీషద్యై ఏషాం బ్రహ్మాణ్యసమాని విప్రా విశ్వగ్మియంతి వనినో న శాఖాః ప్రయజ్ఞే దుహే త్వో న సప్తిరుద్యచ్ఛద్ధ్వం దమనసో ఘృతాజీః శ్రీత బహిరధ్వరాజ సాధూర్ధ్వాసోదీం శ్రీదేవయోన్యస్సు ఆదుత్రాసో న మాతరం విభృత్రాసానౌ దేవాసో బర్హిణః సరంతు ఆ విశ్వాజీవిరథ్యామనక్వగ్నేమానో దేవతా తామృతస్కః ఏషీషపంతజోషమాయజత్రాధృతస్థారా సుదుభాదుహానాః జ్యేష్ఠం వోహ్యమహావసూ నామాగంతన సమానసో యతిష్ఠ దేవానో అగ్నే విక్ష్వాదసస్యత్వజా వయం సహసా బన్నాస్కాః రాజాయుజాస ధమాదో అరిష్టా యూయం పాత స్వస్తిభిస్వదానః విక్రాంబః ప్రథమశివోనసమగ్నిం సమిద్ధం భగమూతయే హువే ఇంద్రం విష్ణుం భూషణం బ్రహ్మరస్పతిమాదిత్యాంజావా పృథివీ అపస్వాహ విక్రామునమసా బోధయంత ఉదీరాణ యజ్ఞమోపప్రయంతాః इलाम् देवीम् हरिभिः साधयम् तोऽस्विना वित्रा सुभवाहुवेम विक्रावाणम् बुबधान अग्निमुपब्रुव बृहसंसौर्यङ्गाम् रत्नम्मंस्ततोरुणस्तवभ्रम् देवि स्वास्मद्दूरिताया वयम् तु धिक्रावा प्रथमो वाद्यर्वाग्रेरसानाम् भवति प्रजानन् संविधानवृषसा सूर्येनादित्येभिर्वसुभिरङ्गीरोभिः आनोदधिक्राः पथ्यामनकृतस्य पन्था मन्दे तमाबु शृणोतु नो दैव्यम् सद्धो अग्निशृण्वन्तु विश्वे महिषा अमूराः आदेवो जातु सविता सुरत्मान्तरिक्षप्रावहमानो अश्वैः हस्ते तथा नो नर्या गुरूणि निवेशयम् च प्रसुवम् च भूम उदस्य बाहूसि चिरा बृहन्ता हिरण्यजा दिवो अन्ताङ्गनष्टाम् नूनम् तो अस्य महिमा पारिष्टसूरश्चिदस्मा अनूरा तपस्याम् सखा नो देवस्य पिता सह भासा विषद्वसूपतिर्वसूमि विश्रयमानो अमतीवरुचिम् मत्तभोज नमधरासते नः इमागिरस्य वितारम् सुजिह्वम् पूर्णगर्भस्त्यमीरते सुपालिम् चित्रम् वयो बृहदस्मे दधातु यूयम् पात स्वस्तिभिः सदा नः इमा रुद्राय स्थिरधन्वने गिराः क्षिप्रेण मे देवाय सुधाम्ये अगाढाय सहमानाय वेधसे दिग्मायूधाय भरता शृणोतु नः सविक्षयेन क्षम् यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति अपन्नवन्ति रूप नो दुरश्चरा न भीवो रुद्रजासु नो भव राते दिद्युदव दृष्टा दिवस्वविक्षयादरधिपदिसाव्रेण कुमः सहस्रम् ते स्वपिबातभेषजामानस्तोकेषु तनयेषु दीर्घः आनोऽवधिरुद्रमापरादामा ते भूमप्रसीतौ हीलितस्य आनो भज बर्हिषि जीवशंसे यूयम् पात स्वस्तिभिः सदा नः आपोऽयम् वः प्रथमम् दे वयम् च इन्द्रपानमूर्मिमरम्बतेलः तम्बो भयम् शुचिमरित्रमद्यकृतपृषम् मधुमन्तम् वनेम मूर्मिमा वो मधुमत्तमम् भोपान्न पादवत्त्वा सुहेमा यस्मिन्निन्द्रो वसुभिर्मादया ते तमस्यामदेवयम् तो गो अद्य शतपवित्रा सुधया मदन्तीर्देवीर्देवानामपि यन्ति पाथाः आ इन्द्रस्य नमीनन्ति व्रतानि सिन्धुभ्यो हव्यम् हृतवद्युहोत या सूर्यो रश्मिभिरादता नजाभ्ययिन्द्रो अरदद्धातुमूर्मिम् ये सिन्धवो वरीवो धातमानो यूयम् पादस्वस्तिभिः सदा नः विभुक्षणो वाजामादयध्वमस्मेन रोमघवानः सुतस्य आवोर्मादकृतभो न जाताम् विभोरसन्नर्यम् वर्तयन्तु विभुर्विभुभिरभिवस्यामविभो विभुभिः सवदासवांसि वाजो अस्माङ्गवदुवाजसादामिन्द्रेण युजातरुषेम वृत्रम् ते जिद्धि भूर्वीरभि सन्ति सासा विश्वाङ्गन्यभूभरतादिवन्वन् इन्द्रो विभ्वाङ्गभुक्षा वाजो अन्यः शत्रोर्मिधत्याग्रेणम् नूदे वाजो वरीवः कर्तनानो भूतनो विश्वेवासे सुजोषाः नमस्मेयिषम् रस मोददीरम् यूयम् पात स्वस्तिभिः सदा नः समुद्रज्येष्ठा सलिलस्य मध्यात्मनायन्त्यनि विषमानाः इन्द्रोयाद्रीवेशभोरराजलावो देवी दिवमामन्तु यावो दिवासवन्ति खनित्रे मा भूतवाजा स्वयंजाः समुद्रार्थाजाश्रुतायः पावकास्तापो देवी दिगमामवन्तु यासाम् राजापरो नो यातिमध्ये सदयापश्यञ्जनानाम् मधुस्तुतस्तुतयो याः पावकास्तापो देवी दिगमामवन्तु यासु राजापरो नो यासु सोमो विश्वे देवायासूर्यम् वदन्ति वैश्वानरो यास्वग्निप्रविष्टस्तापो देवीरिहमामवन्तु आमाम् मित्रावरुणेह रक्षतम् कुलायद्विश्वजन्मानागन् जगावन् दुर्दृशीकम् तिरोद धेमाध्ये नरवासापि तत्सरोः यद्विजामन्परो श्रीमन्दनम् भुवदक्षीवन्तौ परिगुल्फौ च देहत् अग्निष्टच्छोदन्नपबाधराभितो मामध्ये नरवासापि तत्सरोः यच्छल्मलौ भवधियम् नदीषु यदोषाधीभ्यः परिजायते विषम् विश्वे देवानिर्गस्तत्सु वन्तु मामाम् मध्ये नरपदापि दत्सरोः याः प्रवरो निमदा बुद्धरा बुधन्वदीरनुदकाश्च याः ता अस्मभ्यम् वजसा विन्द्रमाणाः शिवा देवीराशिपदा भवन्तु सर्वाद्यो असिमिदा भवन्तु आदित्यानाम सानूतनेन स क्षेमहि सर्वनासन्दमेन अनागास्ते अधिद्वे दुरासयिमम् यज्ञम् दधतु श्रोषमाणाः आदित्यासो अधिधर्मानयन्ताम् मित्रो अर्जमामरुणो रजिष्ठाः अस्माकम् सन्तु भुवनस्य गोपाः पिबन्तु सोममवासेनो अद्य आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्वर्भवश्च विश्वे इन्द्रो अग्निरश्विना दृष्टुवानायूयम् पातस्वस्तिभिस्वदानः आदित्यासो अधीनयस्यामूर्ते भद्रावसमो मक्षत्रा सनेम मित्रावरुणासनम् तो भवे मद्या वा पृथिवी भवन्तः मित्रस्तन्नो वरुणो मामहन्त सर्वलोकायतनराय गोपाः मावो भुजे मान्यजातमे नो मादत्कर्मभोजत्रयद्वे सुरण्यवोऽङ्गीरसो नक्षन्तरत्नम् देवस्य स विद्रीयानाः पितासनो महान्यजत्रो विश्वे देवाः समनसो जुषन्त प्रद्यावायज्ञैः पृथिवी नमोभिस्तवाधीवेत्रे ते सिद्धिपूर्वे कवयो गृणन्तः पुरो महीरधिरे देवपुत्रे प्रभोर्वदे पितरा नव्यसेभिर्गेभ्यगृणध्वम् सरनेदस्य आरोद्या वा पृथिवी दैव्ये न जनेन जातम् महीवाम् परोथम् कुतो हि वाम् रत्नभेदानि सन्ति भ्रूणिद्या वा पृथिवी सुदासे अस्मेभत्तङ्गदसदस्कृधो युयूयम् पात स्वस्तिभिः सदा नः स्तोष्पते प्रतिजानीत्यस्मान् स्वाभेदो नीवो भगवानः यत्वे महे प्रजनो जुडस्वशनो भवद्विपदे सन्दरुष्पदे स्तोष्पते प्रतरणो न ये धिगयस्मानो गोभिरस्वेभिरिन्दो अजरासस्ते सख्ये सामभिदेव पुत्रान् मृतिनो जुषस्व वास्तोष्पदे शक्षरासंसराभे रक्षीमहि रण्वजा गातुमत्या ేమయోగేవరం నో యూజం పాత స్వస్తిభిస్తే విశ్వాణ్యా విశన్ సేవేన జదర్జునసారమేయదీసంగే జీవభ్రాజందరిష్టజముభస్రగ్వేషుభత్సతో సేనం రాజసారమే యతస్కరం వా పునఃస్వర స్తోత్రేనింద్రస్య రాజమస్మాన్ దుచ్చునాయ సేనుష్వం సూకరస్య దద్రీ తవ దర్ధర్తు సూకర స్తోత్రేనింద్రస్య రాజమస్మాన్ దుచ్చునాయ సేనుష్వ సస్తు మాతా సస్తు పితా సస్తు శ్వాసస్తు విశ్వదీహి సర్వే జ్ఞాతయస్తమభితోజనాహస్తేజస్కరణజస్వశ్యదినోజనాహస్తేషాంసంహన్మోక్షానియదేనంహర్యంతథాసహస్రలింగవృషభోజస్రముద్రాదుతరేనాదహస్యేనాభయంయజనాంస్వాపజామసి ప్రోష్ఠే సజా బహ్వే సజా నాదీర్జాసల్పసీవరీ శ్రీయోజా పుణ్యగంధాస్తర్వాస్వాపజామసి స్వప్న స్వప్నాధికరణే సర్వం విశ్వాపజాజనం ఆసూర్యమన్యాన్ స్వాపజ్యూలంజాగ్రజాదహం అజగరో నామ సర్పసర్పిర విరో మహాన్ తస్మిన్ స్వాపజామసి సర్పసర్పో అజగర సర్పిర విరో మహాన్ తర్పాసింధవస్తస్య గాధమసీమహి ఆదిగో నామ సర్పో నవనాగ సహస్ర యమున హరేహ సోదారో నారాయణవాహన యది కాళికాలిక్రాంతో నిర్విషో యాది కాళిక ఆయాజేంద్రపతిమన్నాభాగేనస్వ తృప్తాంజుర్మాతూలస్యోరాభాగస్తే పైతృష్ణేజీ పపామివ యశస్కరం వరవందం ప్రభుత్వంధిపతిర్బూవ సంకీర్ణనాగాస్వపతిర్నరాణాం సుమంగళ్యం సుదతం దీర్ఘమాయోః కర్కోటకో నామ సర్పో యో దృష్టి విషముచ్యతే తస్య సర్పస్య సర్పత్వం తస్మై సర్ప నమోస్తుతే అంగమిత్రమిత్రం అభిస్వభూభిర్మిశోవాస్వనసేనాస్పృధ్యాచికేతూధో మహీయభార సావిత్సువీరా మరుద్భిరస్తు సహంతి పుష్యంతి నృమ్ణం శ్యామంజ్యేష్ఠా శుభాసోభిష్టా శ్రియాసం విశ్వాభోజోభిరుగ్రా ఉగ్రం భవోజశ్చిరాసభాంసా మరుద్భిర్గణస్తు విష్మాన్ శుభ్రోభస్వష్మః క్రుద్ధీమనాం శ్రిధురిర్మునీరి వసర్ధస్య ఋషోః సనేస్మద్యోదిద్యుం మావో ధర్మరిహ ప్రణంగ ప్రియావో నామ హుబే దురాణామాయ త్రిపన్మరుతో వావసానా స్వాయుధాస జష్మిణస్సు నిష్కాదస్వరం తన్వా అశుంభమానా శుచీవో హవ్యామరుతీనాం శుచింజ్వరం శుచిభ్య ఆయన్ శుచి జన్మాన శుచయ పావకా ेष्वामरुदःखादयो भोवक्षस्व रुक्मा उपशिश्रिदानाः दिविद्युतो न ऋष्णिभिरुजाना अनुस्वधामायूधैर्विक्षमानाः प्रबुद्ध्या वजीरते महांसि प्रणामानि प्रयज्यवस्थिरध्वम् सहस्रियम् दम्यम् भागमेतम् गृहमेधीयम् मरुतो जुषध्वम् यदि सुतस्य मरुतो अधीयेच्छा विप्रस्य वाजिनो हरीमन् मक्षूराय सुवीर्यस्य दातनो चिद्यमन्य आदभदरा वा अत्यासोनये मरुतस्वञ्चो यक्षदृशो न सुभयम् समर्याः एवन्येष्ठाशिशवो न शुभ्रा वत्सासो न प्रक्वेलिनः पयोधाः रस्यन्तो नो मरुतो मृणन्तु परिभस्यन्तो रोदसी सुमेके आरे गोहानृहापधो वो अस्तु सुम्नेभिरस्मे वासवो न मध्वम् आवोहोता जोहवीति सत्तस्सत्राजीम् राजिम् मरुतो गृह्णानः यदीवतो मृणो अस्ति गोपाः सोऽध्वयामीहवते मर्भुक्थैः इमे तुरम् मरुतो रामयम् जीवे सहस्रसानमन्ति इमे शंसम् वरुष्यतो विपान्ति गुरुद्वेषो अररुषे दधन्ति इमे रध्वम् किम् मरुतो जुनन्ति यथावसावो जुनन्त अपबाधध्वम् मृणनस्तमाम् जिधत्त विश्वम् तनयम् तोकमस्मे रामापश्चाद्दध्वरथ्यो विभागे आनस्पार्मे भजतनामसंज्ञेम् सुजातम् प्रेषणो भो अस्ति संयध्वनन्तमन्यभर्जनाः सूरा यक्ष्वीश्वरधीषु भिक्षु अथ स्मानो मरुतो रुद्रियासस्त्रातारो भूतमृतनाश्वर्यः भूरीचक्रमरुतः पित्र्याण्युक्तार्यावः सस्यम् ते पुराचीत् मरुद्भिरुग्रः पृतनाशुराः मरुद्भिरिक्षणीतावाचमनुवाः अस्मे वीरो मरुतः सुष्मस्तुजनाञ्जो असुरो विधत्ता अपोलेन दुःखिर एतरे माधस्वमोको अभिवश्याम तन्न इन्द्रो वरुणो मित्रो अग्निरापोषधीर्वणो जुषन्त शर्मन् श्याम मरुतामुपस्थे यूयम् पात स्वस्तिभिः सदानः मद्भो भो नामवारुणयत्रा प्रयज्ञेषु तपसा मदन्ति ये वेदयम् तिरोदसी च दुर्वीपिन्वन्त्युत्संयदया दुर्ग्राः विजेतारो हि मरुतो गृणन्तम् प्रणेतारो यजमानस्य मन्म अस्माकमध्यविदेषु बर्हिरादीतये सदरप्रियाणाः नैतावदन्ये मरुतो यसे मे भ्राजन्ते रुक्मैरायुधैस्तनुभिः आरोदसी विश्वविशक्तिशालाः समानमञ्जम् जते सुभेहम् यद्धत्सावो मरुतो दिद्युदस्तु यद्भागः पुरुषताकराम मावस्तस्यामपि भूमायजत्रास्मेवो अस्तु सुमतिस्तनिष्ठा कृते चिदत्र मरुतो रणन्दानभद्रासः सुजयः पावकाः प्रणावदसुमतिभिर्यजत्रा प्रवादेभिस्तिरतपुष्यसे नः उदस्तुदासो मरुतोऽव्यन्तुमिश्वेभिर्नामभिर्नरो हवींषि ददातनो अमृतस्य प्रजायैलिघृतराजः सूनृता मघानि आस्तुदासो मरुतो विश्वभूतीयच्छा सूरीन् सर्वता तादिगात येनस्मना सतिनो बद्धयन्ति यूयम् पात स्वस्तिभिः सदा नः रसाकमुच्छे अर्चदागणाजयो दैव्यस्य धाम् नस्तु विष्मान् उदक्षोदरम् निरोदसीमहित्वाक्षम् तेनाकम् निर्वृतेरवंसात् जनोश्चिद्वो मरुतस्वेष्येण भीमासस्तु भीमन्यभूयासः प्रेमोऽभिरोदसोतसन्ति विश्वो भोजामन् भरते स्वदृग् ऋगद्वयो मघवद्भ्यो ददातोषन्निन्मरुतः सुष्टितिम् नाः ृहतो नाद्भाविधीरादिजन्तुम् प्रणस्पार्हाभिरूतिभिस्तिरेत युष्मोदो विप्रो मरुतस्वदस्वी युष्मोदो अर्वासहूनिःसहस्री युष्मोदः सम्राणुतहम् दिवृत्रम् रद्वो अस्तु धूतयो देष्णम् रुद्रस्य मीरुषो निवासे भिन्नम् सन्ते मरुतः पुनर्नः यत्सस्वर्तादिः निरेयधाविरवरदेन जीमहे तुराणाम् सुषुधिर्मघोरामिदम् सोक्तम् मरुतो जुषन्त आराचिद्वेषो वृषणोयोरयूयम् पादः स्वस्तिभिः स्वदानः यन्त्राय ध्वजिलमीदम् देवाः सोऽयम् जनयथ तस्माग्नेवरो नमित्रार्यमरुतः शर्म यच्छत युष्माकम् देवावसाहनि प्रियै जानस्तरदिद्विषाः प्रदक्षयम् दिलदेवि महीर्षो यो गोपराजदासति रविवश्चरवञ्चनवसिष्ठः परिवंसते अस्माकमध्यमारुतः सुते सदा विश्वे विवरकामिनाः यस्माहराभ्रम् नरः अधिवावत्सवीयसीयम् जातविदेशवः ओषभिष्विराधसो जातनाम् धांसि पीतये इमावो हव्यामारुतो रवेहि कम्बोष्वान्यत्र गन्तन आचरणो बर्हिः सदाभिदाचन स्पार्हाणिदातवेपसु अस्रेधम् तोमरुतः सोम्येमधौ स्वाहेहमादराध्वै सस्वश्चिद्धिरन्वा अशुम्भमानाहंसासो नीलपृष्ठावतन् विश्वम् सद्धो अभितो मानिषे धनरो नरण्वाः सवनेमदन्तः मरुतो अभिदर्शनाय स्थिरश्चित्तानीव सबोधिघांसति गृहपासान् प्रति समूचेष्ठतमिष्ठेन हन्मानाहन्तनाथम् सान्तपनायिदम् गतिर्मरुतस्तद्यूजुष्टन युष्माकोतीरीशादसः गृहमेधसागतमरुतो मापभूतन युष्माकोतीसूदानवः इहेहवस्वदवसः कवयसूर्यत्वचः यज्ञम् मारुत आवृणे वरङ्गजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमे बन्धना मृत्योर्मक्षीयमारुतात् भद्रम् न अपि वातगमनाः ्रवो नागाद्यमित्राय वरुणाय सत्यम् भजयन्ते भद्रादीते स्यामतव प्रियासो अर्यवन् गृणन्ताः एतस्य मित्रावरुणान् जगुभे उदे सूर्यो अभिद्मन् विश्वस्य स्थातुर्जगदस्य गोपालिमर्तेषु विजया च पश्यन् अयुक्तसप्तहरितः सधस्थाद्याजीम् महन्ति सूर्यम् हृदाजीः धामानि मित्रावरुणायुवाकः संयोजूते भजनीमानि दष्टे उद्वाम् रक्षासो मधुमन्दो असुरा सूर्यो अर्हच्छुक्रवर्णाः यस्मादित्याध्वनो रथम् मित्रो अर्जमावरुणः सजोढाः इमे चेतारोहनृतस्य भूरेर्मित्रो अर्जमावरुणो हि सन्ति इमर्दस्य मादृशर्दुरोणे षड्मासः पुत्रादीते रलब्धाः इमे मित्रो वरुणो दूनभासो चेतसम् चिच्चिदयन्ति दक्षैः अभिक्रमम् सुचेतसम्पदम् तस्थिरस्थिरम् सुपधारयन्ति इमे दिवो अनीमिषा पृथिभिरास्ति कित्वांसो अचेतसम् नयन्ति व्राजेभिन्नद्यो गाधमस्ति पारनो अस्य वर्षन् यद्गोपावदति शर्म भद्रम् मित्रो यच्छम् दिवरुणः सुदासे तस्मिन्नालोकम् धनजम् दधा नामानम् मदेवहेलनम् दुरासः भवे जिंहोत्राभिर्यजे दर्भः काश्चिद्वरुणदृढः परिद्वेषोभिरर्यमावृणक्रूरुम् सुदासे वृणापुलोकम् अस्वस्तिद्धिद्रवेदिष्वेष्येषामधीत्ये न सहसाधहन्ते युष्मद्भिरावृषमदेजमानारक्षस्यन्महिनाः यो ब्रह्मणे सुमाया देवालयस्य धातौ परमस्य राजः श्रीक्षन्दमन्यम् भगवानो अन्यगुरुक्षयाय चक्रिरे सुधातु इयम् देव पुरोहितर्युमभ्याम् यज्ञेनो मित्रावरुणावतारि इष्टानि दुर्गापि वृतम् तिरो नो यूयम् पादस्वस्तिभिस्तदानः स्वाम् चक्षुर्वर्णसुप्रतीकम् देवयोरेजसूर्यस्तन्वान् अभियो विश्वाभुवानानि दक्षेतमन्यम् वर्तेष्वाधिकेत प्रभावर्णामृतामाविप्रोन्माविदीर्घश्रुतीयति यस्य ब्रह्मायुधप्रभुवासायत्रत्वानशरथः प्रणैते रोरोर्मित्रावरुणापृथिव्याः प्रतिवरिष्वा बृहदः सूरानो ततो दधाधे मोषाधेषु विपृथग्यतो अनिमिषम् रक्षमाणा संसामित्रस्य वरुणस्य धामसुष्मो रोदधीमद्वधे महित्वा अयन्मासा अयज्वरामवीराः प्रयज्ञमन्मा वृजनम् तिराधे अमोरा विश्वावृषणाभिमाभाम्नयासु चित्रन्दृशेन यक्षम् दुरस्वजनन्दे अनृदाजनान्नवान्यन्यान्यजिते अभूवन् नमो वाम् यज्ञम् माघयन्नमोभिर्भुवे वाम् मित्रावरुणा समाधाः न वाम् मन्मान् विचसेवानि ब्रह्मजुषणदिवानि यम् देव पुरोहितर्युमभ्याम् यज्ञेरो मित्रावरुणामकानि विश्वानि दुर्गापि कृतम् तिरो नो यूयम् पात स्वस्तिभिस्तदानः सूर्योरिं शे गुरु विश्वाधि भवानूढानाम् समो दिवादृशे रोचमानः कृत्वा कृतस्तुकृतः कर्तृभिर्भूत् सोच प्रतिपुरो न मुद्गा जेभिस्तोमेभिरेभिरेवैः मित्राय वरुणाय भोजो नागसो अर्घ्यम् मे अग्नये च दिनसहस्रणम् सुधोरन्द्रो वरुणो मित्रो अग्निः यच्छम् मृतचन्द्रावपमन्नो अर्कमानकामम् पूर्वरन्दुस्तवानाः यावा भूमे अधिदेत्रासीधान् नो देवाम् यज्ञः सृजनीमानरिष्वे माहेणे भूमवरुणस्य वायोर्मा मित्रस्य प्रियरामस्य ऋणाम् प्रभावासि जीवसेनानोगव्यूतिमुक्षरम् धृतेन आनोजने श्रवजलम् युवाना श्रुतमे मित्रावरुणाः प्रेमा नो मित्रो वरुणोऽर्यमानस्मने लोकायवरीबोदधन्तु सुकारो विश्वा सुप्रसा निसन्तु यूयम् पात स्वस्तिभिः सदा नः उद्वेदि सुभगो विश्वगच्छा साधारणः सूर्यो मानुषाणाम् चक्षुर्मित्रस्य वरुणस्य देवस्तर्मे वयस्तमविव्यक्तमांसि उद्वेदि प्रसभीता जनानाम् महान् केतुरन्नवः सूर्यस्य समानम् चक्रम् पर्याभिरसान्यदेतोहरधिधूर्जयुक्तः विभ्राजमानपुषापस्थाद्रेभैर्वेद्यनुमध्यमानः एकमे देवस्य विराजच्छन्दयस्य मानम् प्रविनादिहाव जीवो रुक्मभूरुदक्षादे दूरे अर्थस्तरनिर्भ्राजमानः नूनम् जना सूर्ये प्रसूतायन्नर्थानि कृणवन्नवांसि यत्रा चक्रुरमृता गातुमस्मै श्येनो नदीयन्नन्वे दिपाथाः प्रतिवाब्धूरबुदीते विधेम नमोभिर्मित्रावरुणोदहव्यैः नो मित्रो वरुणो अर्यमानस्मने लोकाजवरीमोदधन्तु सुगानो विश्वा सुभधा निसन्तु यूयम् पात स्वस्तिभिः सदा नः दिविक्षयम् पारजसः पृथिव्याम् प्रवाहम् घृतस्य निर्मिजोदजीरन् हव्यम् नो मित्रो अर्यमासुजातो राजा सुक्षत्रो वरुणो जुषन्त आराजानामहरतस्य गोपा सिन्धुपदी क्षत्रियाजातमर्वाग् इलान्नो मित्रावर्णोदभृष्टिमवधिवयिन्वतम् जीरदानो मित्रस्तन्नो वरुणो देवो अर्यः प्रसाधिष्ठेभिः प्रतिभिर्नयन्तु नादरिः सुदास इहामदेव सह देवगोपाः यो वाङ्गतम् मनसा रक्षधेतभूद्वाम् भीतिम् कृणवद्धारयच्च उच्छेदाम् मित्रावरुणा कृतेन ताराजानासुक्षितीस्तत्पजेधाम् येन स्तोमो वरुणमित्रदुभ्यम् सोमः शुक्रो न वायवेयामि अविष्टम् धियोधिकृतम् पुरम् धीर्जूयम् पातः स्वस्तिभिः सदानः प्रदीपाम् सूरबुदीते सूक्तैर्मित्रम् भूभे वरुणम् भूतदक्षम् यो न सूर्या अमक्षीतम् ज्येष्ठम् विश्वस्य रामम् नाजिराधिगत्नो ताहि देवानामसु राता भर्यादानाः क्षितीः करतमोर्जयन्तीः अश्यामित्रावरुणाभयम् वाञ्जावादयत्रापि भयन्नः च भूरीपाधावृतस्य सेरूदुरत्येरूरिपवेमत्याय ऋतस्य मित्रावरुणापधावामपो न नावादुरितातरेम आनो मित्रावरुणा हव्यजुष्टिम् घृतैर्गव्योतिमुक्षतमिलाभिः प्रतीभामद्रवरमाजनाय प्रणीतमुद्नो दिव्यस्य नारोः येन स्तोमो वरुणमित्रलुभ्यम् सोमः शुक्रो न वायवेयामि अभिष्टम् धियोधिकृतम् पुरम् धीर्यूयम् पाद स्वस्तिभिः सदा नः मित्रयोर्वरुणयो स्तोमो न येतु सूष्याः नमः स्वान्द्विजातयोः या धारयन्द्रदेवा सुदक्षा रक्षापितरा असुर्याय प्रमाहसा तानस्ति पादरूपावरुणजरिद्रेणा मित्रसाधय दम्भियाः यदज्जसूरमुदिरेणागा मित्रो अर्जमा सुवातीसविताभगाः सुप्रावीरस्तुरक्षणसुदानवः तेनो अम्भोधिप्रति उदस्वराजो अदिदिरदब्धस्य व्रतस्ये महोराजानयीषते प्रतीपांसो रौदीजे मित्रम् गृणीषे वरूणम् हर्यवनम् निषादसम् राजाहीरण्यजापतिजयवासे इयम् विप्राणेशादये श्यामदेववर्णे मित्रसूरिभिः सह इषम् स्वश्च धीमहि भगवः सूरचक्रतोऽग्निजिह्वादृतावृथाः श्रीनिजेवेर्विलभानिधीतिभिर्विश्वानिपरिभूतिभिः दिये दशस्वरतमा समादहर्यज्ञमत्तम् तादृशम् अनाप्यम् वरुणो मित्रो अर्जमासर तद्भो अद्यमानामहे सूक्तैः सूरबुदीते यतो ह देवरुणो मित्रो अर्जमायूयमृतस्य रक्षः ऋतवानृतदातारृतादृधो घोरासो अनृतद्भृताः ेराम्बस्तुम् मे स्वच्छदृष्टा मे नरस्यामये च सूरजाः उदत्य दर्शनमवर्धिपरे यदी मा सर्वहति देवदेतसो विश्वस्मै चक्षसे अलम् शीर्षस्येष्णो जगतस्तस्तुरस्पतिम् समनराविश्वमादराः सप्तस्वरस्तु विलायोजम्बहम् देहरिगोरसे तच्चक्षुर्देवहीनम् शुक्रमुच्चरत् पश्येम शरदस्वरम् वीरेम शरदस्वरम् काव्येभिरथाभ्यादम् वरुणद्युमत् नेत्रस्तरोमवीदये जिवो धामाभिर्वरुणमित्रस्तायातमद्रुहा विभातम् रोमामाधुरी आयातम् मित्रावरुणायुषाणा बाहूदिन्नरा पातम् सोमानृतारुधा प्रदीपाम् रथम् नृपदी जरध्यै हरिष्मदामनसाधिज्ञे यो वाम् दूतो न धिष्ठापजीकरच्छा सूनुर्न वितरा विवग्नि असोऽत्रयग्निस्वाभिधानो अस्मे मुपो अदृश्रन्दमानस्त्रियन्दाः अजेदिके दुर्षदः पुरस्ताच्छये दिवो दुर्धिदुर्जायमानः अभिवाम् नूनमश्विनाशुभो तास्तोमै श्रीमद्विना सत्यापि भक्वान् पूर्वेभिर्जातम् वत्सरार्यर्वात्सर्विधावसुमतारसेन अवोर्वाम् नूनमश्विना युवा कुर्भुवे यद्वाम् सुदेवाद्भीमसूयुः आवाम् वरम् दस्थवीरासो अश्वाप्युवासो अस्मे सुमधूनि राजीमुदेवाश्विनाभियम् मे वृद्धाम् सादरे ब्रह्मसूयम् विश्वाविष्टम् वाजापुरम् धीस्तानः सक्तम् सजीपती सजीभिः अभिष्टम् धेष्वश्विनान आसु प्रजाभद्रे नो अह्रायम् नो अस्तु आवाम् तोकेतन ये